एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन वर्षायामज घटनानां न्यूनीकरणाय प्रतिकार्याय च निर्धारितायाः एतद्विक्रमवर्षीयायाः राष्ट्रिय कार्ययोजनायाः प्रभावकारिणे क्रियान्वयनाय प्रतिबद्धता व्यक्तास्ति। प्राधिकरणेन ह्य पत्रकार सम्मेलनम् आयोज्य विगतेभ्य दिनेभ्य शिक्षां गृहीत्वा अस्मिन् वर्षे क्षतेः न्यूनीकरणाय प्रभावकारी रूपेण कार्ययोजनायाः क्रियान्वयनाय च प्रतिबद्धता व्यक्तास्ति। प्राधिकरणस्य निमित्त कार्यकारी प्रमुख बन्धु प्रसाद वास्तोला विपदजन्य घटनानां पूर्व सूचना प्रदानस्य कार्यं प्रभावकारी विधाय प्राधिकरणेन वर्षायामज घटनानां न्यूनीकरणाय प्रतिकार्याय च सम्बद्धैः निकायैः सह समन्वयं सहकार्यं च करिष्यते इति अगदत्। पूर्व सूचना संचेतना प्रणालीं सबलां विधाय संकटे निपतितानां जनानां क्षेत्राणां समुदायानां च कृते यथासमयं सूचना सम्प्रेषणस्य व्यवस्था विधीयते इति असूचयत्। अस्मिन् वर्षे आसन्न विंशतिः लक्षाणि जनाः वर्षाभ्यः प्रभाविताः भविष्यन्तीति प्राधिकरणेन अनुमितम् वर्तते। प्रधानमन्त्री केपी शर्मा ओली कथयति हिमालयानाम् आरोहणस्य कार्यं सुरक्षितं सम्पादयितुं सर्वकारः क्रियाशीलो वर्तते। अन्नपूर्ण हिमालयारोहणस्य हीरक महोत्सवस्य अवसरे ह्य अन्नपूर्ण ग्रामपालिकया नारच्याङ स्थाने आयोजिते समारोहे प्रधानमन्त्री ओली हिमालयारोहणस्य संकटं न्यूनीकर्तुं सर्वकारेण कार्यं विधीयमानमस्तीति प्रावोचत्। तदवसरे प्रधानमन्त्री ओली म्याग्दी जनपदीय मार्गस्य मुस्ताङ जनपदस्य कोरला सीम प्रवेशबिन्दोः योजकस्य कृष्णा गण्डकी तटीय मार्गस्य स्तरोन्नतेः कार्याय राज्येन प्राथमिकता प्रदानेन सहैव कोरला सीम प्रवेशबिन्दौ भौतिक पूर्वाधाराणाम् निर्माण कार्य सम्प्रति सर्वकारः संलग्नोऽस्तीति असूचयत्। सम्मेलने संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डे सर्वकारेण पर्यटन नीत्यां सामयिक सुधारेण सह आरोही कल्याणकारी कोषस्य स्थापनाय कार्यं विधास्यते इति अगदत्। कार्यक्रमे गण्डकी प्रदेशस्य पर्यटनोद्योग मन्त्रिणा मित्रलाल वस्यालेन पोखरा नगरं गण्डकी प्रदेश सर्वकारेण पर्यटकीय राजधानी उद्घुष्टम् वर्तते तस्य कार्यस्य संघीय मन्त्री परिषदा अनुमोदनम् विधेयमिति बलम् प्रादात्। यातायात व्यवसायीभिः स्वस्य सर्वेऽपि आन्दोलनस्य कार्यक्रमाः स्थगित कृताः वर्तन्ते। गण्डकी प्रदेश सर्वकारेण एकमासस्य कृते सामूहिक यान सञ्चालन नियमावल्याः कार्यं स्थगयितुं विहितेन निर्णयेन सहैव यातायात व्यवसायीभिः आन्दोलनस्य सर्वे कार्यक्रमाः स्थगितकृताः सन्ति। आन्दोलनस्य स्थगनेन सहैव अद्यतः सार्वजनिक यातायात साधनानि सञ्चाल्यमानानि वर्तन्ते। परह्य सोमवासरे एव सर्वकारस्य यातायात व्यवसायीभिः सह मध्यरात्रौ सहमति धृता आसीत्। सहमतेः धरणानन्तरम् अपि ह्योऽपि सार्वजनिक यातायात साधनानां सञ्चालनाभावे साधारणजनैः कष्टं सोढव्यमासीत्। नेपाल यातायात व्यवसायी राष्ट्रिय महासंघस्य अध्यक्ष विजय स्वार आन्दोलनस्य सर्वेऽपि कार्यक्रमाः स्थगितकृताः सन्तीति असूचयत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना सह सत्यनिरूपण मेलायोगस्य विलोपितानां व्यक्तिनाम् अन्वेषणायोगस्य च नवनियुक्त पदाधिकारीभिः परिचयात्मकं विमर्शनं विहितं वर्तते। बालवाटार वर्तिनी प्रधानमन्त्री निवासे सम्भूते एतस्मिन् विमर्शने आयोगस्य पदाधिकारीभिः स्वस्य नियुक्तेः पश्चात् न्यायिक वेदनायाः निवेदनानि पञ्जीकारयितुं सूचनायाः प्रवाहस्य कार्यं प्रारब्धमस्ति। दृष्टानां समाह्वयानाम् आयव्ययकस्य पूर्वाधारस्य च कृते सर्वकारात् विहितायाः अपेक्षायाश्च विषयेण प्रधानमन्त्री विज्ञापितः आसीत्। विमर्शने विधिन्याय संसदीय विषय मन्त्री अजय चौरसिया, प्रधानमन्त्रिणः मानवाधिकार संक्रमणकालिका न्याय सम्बद्ध परामर्शदाता अग्नि खरेलः, महान्यायाधिवक्ता रमेश बडालः इत्येतैः जनैः सत्य निरूपण मेलायोगस्य अध्यक्ष महेश थापा, विलोपितानां व्यक्तिनाम् अन्वेषण आयोगस्य अध्यक्ष लीलादेवी गर्तौला, आयोगस्य सदस्याः सचिवाश्च सहभागिनः आसन्। विमर्शने प्रधानमन्त्री ओली, संक्रमणकालिका न्यायस्य पीडितजनान् केन्द्रे संस्थाप्य निष्कर्षे प्रापणस्य विषये सर्वकारस्य आवश्यक सहयोगो भविष्यति इति विश्वासं दापयन्, अन्य कार्ये सर्वकारस्य कथंविदोऽपि प्रवाह हस्तक्षेपश्च न भविष्यतः इति समस्पष्टयत्। प्रतिनिधिसभाया उपवेश अद्य दिवा एकवादने वसति। ह्य प्रात एकादशवादनाय आहूतः उपवेश पर्यटनाय देशान्तर प्रवेशानुज्ञानुमतिपत्र प्रकरणे गृहमन्त्रिणः रमेश लेखकस्य त्यागपत्रस्य विषयमाधृत्य उपवेष्टुम् अशक्त। तदनु सूचनां प्रकाश्य द्विवादनाय आहूता आसीत्। दिवा द्विवादने पी उपवेशस्य उपवेशनाय वातावरणस्य अनिर्माणानन्तरम् अद्य एकवादनं यावत् उपवेश स्थगितकृतः आसीत्। तन्मध्ये संसदः सञ्चालनाय गतिरोधं समापयितुं सभामुखेन देवराज घिमिरे विदेन सत्तारूढ दलानां प्रतिपक्षदलानां च प्रमुखैः मुख्य सचेतक पदीयैः सह पृथक् पृथक् सामूहिक रूपेण च वार्ता विहितासीत्। राष्ट्रिय सभातः अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयस्य हुतात्म दशरथ चन्द स्वास्थ्य विज्ञान विश्वविद्यालय विधेयकस्य विषये प्रतिनिधिसभातः विहिते संशोधने सहमतिं धर्तुं प्रस्तुतः प्रस्ताव सर्वसम्मत्या स्वीकृतोऽस्ति। सभाया ह्यस्तनोपवेशे शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्त प्रस्ताव अमुम प्रास्तोत। एवमेव उपवेशे सभाध्यक्ष नारायण प्रसाद दाहाल आगामिन आर्थिक वर्षस्य कृते राजस्वस्य व्ययस्य च वार्षिकम् अनुमानम् आधृत्य विमर्शनाय शिव ज्येष्ठ मासस्य एकविंशात् दिवसादारभ्य त्रयोविंशम् दिवसं यावत् त्रीणि दिनानि निर्धारितवान्। तत्पूर्वं राष्ट्रियसभायाः आकस्मिक समये शून्य समये च सांसदाः गत सोमवासरात् यातायात क्षेत्रे सम्भूतेन आन्दोलनेन देशः अस्तव्यस्तः सञ्जातोऽस्ति, साधारणजनैः कष्टम् अनुभूयमानं च वर्तते इत्यतः तत्कालमेव यातायात व्यवसायिभिः सह वार्तां विधाय सार्वजनिक यातायात सञ्चालयितुं सर्वकारम् अयाचन्त। राष्ट्रियसभायाः अपरोपवेश अद्य दिवा सपादैकवादने वसति। प्रतिपक्षीदलै पर्यटनाय देशान्तर प्रवेशानुज्ञानुमतिपत्र प्रकरणे उच्चस्तरीयानुसन्धान समितेः संघटनाय याचना पूर्ववद्ध विहितास्ति। प्रमुख प्रतिपक्षिणः नेकपा माओवादी केन्द्रस्य संसदीय दलस्य नेतुः पुष्पकमला दाहाल प्रचण्डस्य अध्यक्षतायां ह्य उपविष्टेन प्रतिपक्षीदलानाम् उपवेशेन पर्यटनाय देशान्तर प्रवेशानुज्ञानुमतिपत्र प्रकरणं निराकर्तुं सर्वपक्षीयायै प्रतिबद्धतायै निर्णीतम् अस्तीति राष्ट्रिय स्वतन्त्र दलस्य प्रवक्ता मनीष झा असूचयत। अनुसन्धानस्य मार्गं प्रशस्तीकर्तुं गृहमन्त्रिणा अनुसन्धान परिणामस्य अप्राप्तिं यावत् त्यागपत्रं प्रदाय सहयोग विधेय इति च प्रतिपक्षीदलानां निष्कर्षः आसीत्।